ಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ ನೋತಿಭಿಃ ಸೀದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತೀ ಧೀನಾಮವಿತ್ರಯವತೋ ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೇ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾ ನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೂರಘೋರ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಜಾಕಶೀಃ ಯಾಮಿಷುಂ ಗಿರಿಶಂತ ಹಸ್ತೇಭಿಭಕ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೇವ್ಯೋಭಿಷಕ್ ಅಹೀಗಶ್ಚ ಸರ್ವಾಗಾನ್ ಜಂಭಯನ್ ಸರ್ವಾಗಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸವ್ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರೋತ್ಸು ಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಪಿದೋ ದಿಕ್ಷು ಶ್ರಿತಾತ್ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಳ ಇಮಹೇ ಅಸವ್ಯೋ ವಸತ್ಪತಿ ನೀಲಗ್ರೇ ಗೋವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾದೃಶನ್ನ ದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀದುಷೇಗೆ ಅಧೋಗೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ದೇಭ್ಯೋ ಕರನ್ ನಮಃ ಪ್ರಮುಂಜಧನ್ನನಸ್ವಮುಭಯೋರಾತ್ಮಿಯೋರ್ಜ್ಯಾಂ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವಃ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷರಶತೇಷು ಧೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾಣಾ ಮುಖಾ ಶಿವೋ ನ ಸುಮನಾ ಭವ ವಿಜ್ಯಂ ಧನುಃ ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತಾ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುಲಸ್ಯ ನಿಶಂಗಧಿಃ ಯಾತೇ ಹೇ ದರ್ಮೀ ದುಷ್ಟಮಹಸ್ತೇ ಬಭೂವತೇ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತತ್ವಮ ಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯಾನಾತತಾಯ ದೃಷ್ಣವೇಗೇ ಉಭಾಭ್ಯಾಮುತತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿದೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಧೋ ಯಗಿಷು ದಿತ್ತವಾರೇ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः
नमो
हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सत्पिञ्जराय त्रिषीमते पधीनां पतये नमो नमो बब्लुषाय विव्याधिने नानां पतये नमो नमो हरिकेशायोपवेदिने पुष्टाणां पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्रायाततावेक्षेत्राणाम् पतये नमो नमः सूतायासन्त्याय वनानाम् पतये नमो नमो रोहिताय सपतये वृक्षाणाम् पतये नमो नमो मन्द्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवत्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषायाक्रन्दयते पत्तीनाम् पतये नमो नमः कृष्णवेताय धावते सत्त्वनाम् पतये नमः नमस्तगमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणेके सेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिगागुंसद्भ्यो मुष्णता पतये नमो नमोऽसि मद्भ्यो नक्तम् जरव्यप्रकृन्दानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो तन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्चयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमः तिष्ठद्भ्यो दावद्भ्यश्च वो नमो नमः सभाभ्यः सभापदिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपदिभ्यश्च वो नमः नम आव्याधिनीकेभ्यो विविद्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो कृत्सेभ्यो कृत्सपदिभ्यश्च वो नमो नमो व्रातेकेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः चुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेकेभ्यो रथपदिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रभ्यत्संग्रहेतृभ्यश्च वो नमो नमः तक्षद्भ्योरधकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्मारेकेभ्यश्च वो नमो नमः पुञ्जिष्ठेकेभ्यो निषादेभ्यश्च वो नमो नमः इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपदेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च चितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मेदुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्ध्वने च नमो अग्र्याय च प्रथमाय च नम आशवे चाचिराय च नम शीघ्रियाय च शेभ्याय च नम ऊर्म्याय च वस्तुन्याय च नम श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नम पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जगन्याय च बुध्नियाय च नम सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च घल्याय च नम श्लोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नम श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरधाय च नम शूराय च वबिन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नम श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च कनन्याय च नमो कृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धीमते च नमः तेष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च रुणाय च नमः शङ्काय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो करिकेशेभ्यो नमः ताराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोर्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय चालाद्याय च नमः षष्ट्याय च भेन्याय च नमः सिकत्याय च प्रवाक्याय च नमः गिरण्याय च प्रपत्याय च नमः किगुंशिलाय च शयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेष्ट्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सौर्व्याय च नमः पर्ण्याय च वर्णशव्याय च नमोपगुरमाणाय च भिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवत्केभ्यः द्रापे अंधसत्पते दरिद्रन्नीललोकिता एषां पुरुषाणां एषां पशूनां मा भेर्मा रोमो येषां किञ्चनाममत् याते रुद्र शिवा तनु शिवा विश्वाकभेषजे शिवा रुद्रस्य भेषजीतयानो मृडजीवसे गे इमागुं रुद्राय तवसे कपर्दिने गे शयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयकृदि क्षयद्वीराय नमसा विधेमते यच्चं च योश्च मनुराय जे पिता तदस्याम तव रुद्र प्रणीतौ मानो महान्तमुत मानो अर्भकं मान उक्षन्तमुत मान उक्षितम् मानो वदे पितरं मोत मातरं प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके दनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामिदो वदेर्हविष्मन्दो नमसा विधेमते आराते गोघ्रमुत पोरुषग्ने शयद्वीराय सुम्नमस्मे ते अस्तो रक्षाजनो अधिजते वब्रूह्यथा जन शर्म यच्चद्विबरुहाकाः स्तुहि श्रुतं गर्तसतं युवानं मृगन्न भीममुपहत्रुमुग्रम् मृडाजरिद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनागाः परिणो रुद्रस्य हेतुर्वृणक्तु परित्वेषस्य दुर्मदिरधायोः अवस्तिरा मघवद्भ्यस्तनुष्वमीनस्तोकाय तनयाय मृडया मीनुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधं निधाय कृत्यं वसानमाचर पिनाकं बिभ्रदागही विगिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुह्येदयोन्यमस्मन्यवपन्तु ताः सहस्राणि सहस्रदा बाहुवोत्सवहेतयः तासामीशानो भगवः पराचेना मुखाकृते సకత్రాణి సకత్ర శోగే రుద్రా అధిభూమ్యా తేషాగుం సకత్రయోజనే వధన్వాని తన్మసి అస్మిన్ మహత్యర్ణవేకేంద్రరిక్షే భవాది నీలగ్రీవా శశికంఠా శర్వా అధః క్షమాచరాః నీలగ్రీవా శశికంఠాదివగుం రుద్రా ఉపశ్రితాః ఏ వృక్షేషు సస్పింజరా నీలగ్రీవా విలోహితాః ఏ భూతానామధిపతయో విశికాసక్కపర్దినః ఏ అన్నేషు విభిద్యంతి పాత్రేషు పిపదో జనాన్ ఏ పదాం పదిరక్షయ ఐలమృదాయభ్యుదః ఏ తీర్థాని ప్రజలంతి శృగావంతో నిషంగిణః యకేతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్తిరే తేషాగుం సహస్రయోజనే వధన్వాని తన్మసి నమో రుద్రేభ్యో యే పృథివ్యాం యేతరిక్షే యే దివిషామన్నం వాతో వరుషమిషవస్తేభ్యో దశ ప్రాచేర్దశ దక్షిణా దశ ప్రతిచేర్దశో దీచేర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృడయంతు తేయం విష్మో యశ్చ నో ద్వేష్టిరం భోజం భేదధా త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షీయమామృతాత్ యో రుద్రో అగ్నవ్యో అప్సుయ ఓషధీషు యో రుద్రో విశ్వాభువనాభివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశా మృత్యో మర్త్యాయ హంతవే తాన్యజ్ఞస్య మాయయా సర్వానవయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విషాంతకః తేనాన్యేనాప్యాయస్వ నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తమష్టుభియస్విషుస్సుదన్మాయో విశ్వస్య క్షయదివేషజస్య యక్ష్వామహేశో మనసాయ రుద్రం నమో భిర్దేవమసురంధువస్య అయం మే హస్తో భగవాన్ అయం మే భగవత్తరః అయం మే విశ్వభేషజోయగుం శివాభిమరుషణః ఓం శాంతి శాంతి శాంతిః ఓం అగ్నా విష్ణో సజోషసే మా బద్ధంతు వాంగిరః ద్యుమ్నైర్వాజేభిరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసితిశ్చ మే దీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే శుభశ్చ మే ప్రాణశ్చ మే పానశ్చ మే వ్యానశ్చ మే సుశ్చ మే చిత్తం చ మాధీతం చ మే వాచ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మోజశ్చ మే సహశ్చ మయుశ్చ మే జరా చ మత్మా చ మే తనోశ్చ మే శర్మ చ మే వర్మ చ మే గాని చ మే స్థాని చ మే పరోగుంషి చ మే శరీరాణి చ మే
जैष्ठ्यम् च महाधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मे मश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वश्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगत् च मे धनम् च मे वशश्च मे द्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे स्थिरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे नमित्रम् च मे अभयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ओच्च मे सुनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सख्यश्च मे सपीतिश्च मे ऋषिश्च मे वृष्टिश्च मे चैत्रम् च महौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कोयवाश्च मे नम् च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे वाशाश्च मे तिनाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मेणवश्च मे क्षामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे सीसम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च महापश्च मे विरुधश्च महौषधयश्च मे कृष्णपच्यम् च मे कृष्णपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे उषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे
विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्योश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्रे च म आग्रगणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतो ग्रहाश्च मेति गाभ्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीवतश्च मे हार्यो जलश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे ऋषभणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतवृक्ष म आधवनीयश्च म आग्नेयम् च मे हविर्दानम् च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे कर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्योश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रतन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौहि च मे पञ्चाभिश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहि च मे पष्टवाच्च मे पष्टौहि च म उक्षा च मे वशा च मृषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रै यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे षौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे शाविगुंसतिश्च मे द्वात्रिगुंषच्च मे षट्त्रिगुंषच्च मे चत्वारिगुंषच्च मे चतुश्चत्वारिगुंषच्च मे ष्टाचत्वारिगुंषच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इरादेवहोर्मनुर्यज्ञनीर्बृहस्पतिरुक्ता मदानिषगुंसिषद्विश्वे देवासोक्तवाच पृथिवीमातर्मा माहिगुंसीर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्चैयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोऽध्वौ दैत्पुरुषः पादोऽस्येहा भवात्पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्याधिराज्यम् ग्रीष्म इद्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् पृषदाज्यम् पशुगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्ता ये केचो भयादतः गावो ह जज्ञिरे तस्मात् తస్మాజ్జాత అజావయః యత్పురుషం వ్యదధుః కతిధా వ్యకల్పయన్ ముఖం కిమస్య కౌ బాహూ తాహూరుపాదావుచ్యేతే బ్రాహ్మణోస్య ముఖమాసీత్ బాహూరాజన్య కృతః ఊరుతదస్య యద్వైష్యః పద్భ్యాగుం శూద్రో అజాయత చంద్రమా మనసో జాతః చక్షో సూర్యో అజాయత ముఖాదింద్రశ్చాగ్నిశ్చ ప్రాణాద్వాయురజాయత నాభ్యా ఆసీదంతరిక్షం శీర్ష్ణోద్యౌ సమవర్తత పద్భ్యాం భూమిర్దిశ శ్రోత్రాత్ తథా లోకాగుం అకల్పయన్ వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసస్తు పారే సర్వాణి రూపాణి విచిత్య ధీరః నామాని కృత్వాభివదంత్యదాస్తే ధాతా పురస్తాద్యముదా జహార శక్ర ప్రవిద్వాన్ ప్రదిశశ్చ తస్రః తమేవం విద్వానమృత ఇహ భవతి నాన్యః పంథా అయనాయ విద్యతే యజ్ఞేన యజ్ఞమయజంత దేవాః తాని ధర్మాణి ప్రథమాన్యాసన్ తేహనాకం మహిమానః సచంతే యత్ర పూర్వే సాధ్యా సంతి దేవాః అభ్యః సంభూత పృథివ్యైరసా చ విశ్వకర్మణః సమవర్తతాధి తస్య త్వష్టా విదధద్రూపమేతి తత్పురుషస్య విశ్వమాజానమగ్రే వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసః పరస్తాత్ తమేవం విద్వానమృత ఇహ భవతి నాన్యః పంథా విద్యతే యనాయ ప్రజాపతిశ్చరతి గర్భే అంతః అజాయమానో బహుధా విజాయతే తస్య ధీరా పరిజానంతి యోనిం మరీచీనాం పదమిచ్ఛంతి వేధసః యో దేవేభ్య ఆతపతి యో దేవానాం పురోహితః పూర్వో యో దేవేభ్యో జాతః నమో రుచాయ బ్రాహ్మయే రుచం బ్రాహ్మం జనయంతః దేవా అగ్రే తదబ్రువన్ యస్త్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా అసన్వశే రేశ్చ తే లక్ష్మీశ్చ పత్న్యో అహోరాత్రే పార్శ్వే నక్షత్రాణి రూపం అశ్వినో వ్యాత్తం ఇష్టం మనిషాణా అముం మనిషాణా సర్వం మనిషాణా తచ్చయ్యోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవీ స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం శన్నో అసస్సు ద్విపదే శం చతుష్పదే ఓం శాంతి శాంతి శాంతిః ఓం అత్రినాత్వా క్రిమే హన్మి కణ్వేన జమదగ్నినా విశ్వావసోర్బ్రహ్మణా హతః క్రిమీనాగుం రాజా అప్యేషాగస్తపతిర్హతః అథో మాతాతో పితా అథో స్థూరా అథో క్షుద్రా अधो कृष्णा अधो श्वेताः अधो आशातिकाः हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्मृते ॐ शान्ति शान्ति शान्तिः ॐ अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम् होतारम् रत्नधातमम् ऋग्वेदात्मने सूर्यनारायण स्वामिने नमः इषे त्वोर्जे त्वावायवस्थोपायवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे यजुर्वेदात्मने सूर्यनारायण स्वामिने नमः अग्न आयाहि वीतये ऋणानो हव्यदातये निहोतासस्य बर्हिषे सामवेदात्मने सूर्यनारायण स्वामिने नमः शन्नो देवीरभिष्टय आपो भवन्तु वीतये शय्योरभिश्रवन्तु नः अथर्ववेदात्मने सूर्यनारायण स्वामिने नमः घृणि सूर्य आदित्यो न प्रभावात्यक्षरम् मधुक्षरम् इदद्रतम् सत्यम् वैतद्रसमापो ज्योतिरसो मृतम् ब्रह्म भूर्भुवः सुवरो छाया सुवच्चलाम्बा समेत श्रीसूर्यनारायण स्वामिने नमः तरणिर्विश्वदर्शतो ज्योतिष्कृदति सूर्या विश्वमाभासि लोचनम् उपयाम गृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनि सूर्याय त्वा भ्राजस्वते छाया सुवत्सलाम्बा समेत श्रीसूर्यनारायण स्वामिने नमः ॐ ह्राम् उद्यन्नद्यमित्रमहः मित्राय नमः ॐ ह्रीं आरोहन्नुत्तरां दिवम् रवये नमः ॐ ह्रूं हृद्रोगं मम सूर्य सूर्याय नमः ॐ ह्रैं हरिमाणं च नाशय भानवे नमः ॐ ह्रौं शुकेषु मे हरिमाणम् खगाय नमः ॐ ह्रः रोपणाकासु दद्मके पूष्णे नमः ॐ ह्राम् अधो हारिद्रवेषु मे हिरण्यगर्भाय नमः ॐ ह्रीं हरिमाडन्नि दद्मते मरीचये नमः ॐ ह्रूं उदगादयमादित्यः आदित्याय नमः ॐ ह्रैं विश्वेण सहसा सह सवित्रे नमः ॐ ह्रौं विशन्तं मम रन्धयन् अर्काय नमः ॐ ह्रः मो अहं विशदो रथम् भास्कराय नमः ॐ ह्रां ह्रीं उद्यन्नद्यमित्रमहः आरोहन्नुत्तरां दिवम् मित्ररविभ्यां नमः ॐ ह्रूं ह्रैं हृद्रोगं मम सूर्या हरिमाणं च नाशया सूर्यभानुभ्यां नमः ॐ ह्रौं ह्रः शुकेषु मे हरिमाणम् रोपणाकासु दद्मसे खगपूषभ्यां नमः ॐ ह्रां ह्रीं अधो हारिद्रवेषु मे हरिमाणन्निदद्मते हिरण्यगर्भमरीचिभ्यां नमः ॐ ह्रों ह्रैं उदगादयमादित्यः विश्वेन सहसा सह आदित्यसवितृभ्यां नमः ॐ ह्रौं ह्रः दिशन्तं मम रन्धयन् मो अहं विशतो रथम् अर्कभास्कराभ्यां नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं उद्यन्नद्यमित्रमहः आरोहन्नुत्तरां दिवम् हृद्रोगं मम सूर्या हरिमाणं च नाशया मित्ररविसौर्यभानुभ्यो नमः ॐ ह्रौं ह्रः ह्रां ह्रीं शुकेषु मे हरिमाणम् रोपणाकासु दद्मसे अधो हारिद्रवेषु मे हरिमाणं निदद्मसे गगपूषहिरण्यगर्भमरीचिभ्यो नमः ॐ ह्रूं ह्रैं ह्रौं ह्रः उदगादयमादित्यः विश्वेन सहसा सह विशन्तं मम रन्धयन् मो अहं विशतो रथम् आदित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तरां दिवम् हृद्रोगं मम सूर्या हरिमाणं च नाशया शुकेषु मे हरिमाणम् रोपणाकासु दद्मसे मित्ररविसूर्यभानुखगपूषभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः अधो हारिद्रवेषु मे हरिमाणं निदद्मते उदगादयमादित्यः विश्वेन सहसा सह द्विषन्तं मम रन्धयन् मो अहं द्विषतो रथम् हिरण्यगर्भमरीत्यादित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तरां दिवम् हृद्रोगं मम सूर्या हरिमाणं च नाशया शुकेषु मे हरिमाणम् रूपणाकासु दद्मसि अथो हारिद्रवेषु मे हरिमानन्नि दद्मसि उदगादयमादित्यः विश्वेन सहसा सह दिशन्तम् मम रन्धयन् मो अहम् दिशतो रथम् मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः आदित्यो वा एष एतन्मण्डलम् तपति तत्र तादृशस्तदृचामण्डलगुम् सदृचा लोकोथय एष एतस्मिन्मण्डलेऽर्चिर्दीप्यते तानि सामानि सताम्नाम् लोकोथय एष एतस्मिन्मण्डलेऽर्चिषि पुरुषस्तानि यजोगुंषि स यजुषा मण्डलगुम् स यजुषाम् लोकस्यैषात्रय्येव विद्यातपति य एषो तदादित्यैरण्मय पुरुषः छायासु वच्चलाम्बासमेत श्रीसूर्यनारायण स्वामिने नमः आदित्यो वै तेज ओजो बलम् यशश्चक्षुश्रोत्रमात्मा मनो मन्युर्मनुर्मृत्युः सत्यो मित्रो वायुराकाश प्राणो लोकपालक किम् कम् तत्सत्यमन्नममृतो जीवो विश्व कदमः स्वयम्भो ब्रह्मैतदमृतगेश पुरुषगेश भूतानामधिपति ब्रह्मण सायुज्यगुंस लोकतामाप्नोत्येतासामेव देवता नागुंसायुज्यगुम् साष्ठितागुम् समानलोकतामाप्नोति य एवम् वेदेत्युपनिषत् छायासु वच्चलाम्बासमेत श्रीसूर्यनारायण स्वामिने नमः ॐ शान्ति शान्ति शान्तिः ॐ तेजोऽसि तत्त्वे प्रयच्छामि तेजस्वतस्तु मे मुखम् तेजस्वच्चिरो अस्तु मे तेजस्वान् विश्वतः प्रत्यन् तेजसा सम्पि वृद्धि मा ओजोऽसि तत्ते प्रयच्छामि ओजस्वदस्तु मे मुखम् ओजस्वच्चिरो अस्तु मे ओजस्वान् विश्वतः प्रत्यन् ओजसा सम्पि वृद्धि मा पयोऽसि तत्ते प्रयच्छामि पयस्वदस्तु मे मुखम् पयस्वच्चिरो अस्तु मे पयस्वान् विश्वतः प्रत्यन् पयसा सम्पि वृद्धि मा आयुरसि तत्ते प्रयच्छामि आयुष्मदत्तु मे मुखम् आयुष्मच्चिरो अस्तु मे आयुष्मान् विश्वतः प्रत्यन् आयुषा संविवृद्धि मा इममग्र आयुषे वच्चसे कृधि प्रियगुं रेतो वरुण सोमराजन् माते वास्मा अधिधेशन्न यच्छ विश्वे देवा जनदष्टिर्यथा सत् आयुरसि सर्वायुरसि सर्वायुरसि सर्वमायुरसि यतो वातो मनोजवाः
यतः क्षरन्ति सिन्धवः तासाकाम् त्वा सर्वासागुम् रुचा अभिषिञ्चामि वर्चसा समुद्र इवासि गम्भना सोम इवास्यताभ्यः अग्निरिव विश्वत प्रत्यन्य सूर्य इव ज्योतिषा विभोः अपाम्योद्रवणेरसः तमहमस्मामुष्यागराय तेजसे ब्रह्मवर्चसाय गृह्णामि अपाम्य ऊर्मौरसः तमहमस्मामुष्यागराय ओजसे वीर्याय गृह्णामि अपाम्यो मध्यदोरसः तमहमस्मामुष्यागणाय पुष्टै प्रजननाय गृह्णामि अपाम्यो यज्ञयोरसः तमहमस्मामुष्यागणाय आयुषे दीर्घायुत्वाय गृह्णामि स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ